सहस्रकोटिसदृशं केयूरहारोज्ज्वलां बिम्बोष्टीं स्मितदन्तपङ्क्तिरुचिरां पीताम्बरालङ्कृतां विष्णु ब्रह्मसुरेन्द्रसेवितपदां तत्त्वस्वरूपां शिवां मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारां निधिम् मुक्ताहारलसत्किरीटरुचिरां पूर्णेन्दुवक्त्रप्रभां सिञ्चन् नूपुरकिङ्किणीमणिधरां पुष्पप्रभाभासुरां सर्वाभीष्टफलप्रदां गिरिसुतां वाणीरमां सेवितां मीनाक्षीं प्रणतोऽस्मि सन्ततमहम् कारुण्यवारां निधिम्। श्रीविद्यां शिववामभागनिलयां क्रीङ्कारमन्त्रोज्ज्वलां श्रीचक्राङ्कितबिन्दुमध्यवसतीं श्रीमत्सभानायकीं श्रीमच्छण्मुखविघ्नराजजननीं श्रीमज्जगन्मोहिनीं मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारां निधिं। श्रीमत्सुन्दरनायकीं भयहरां ज्ञानप्रदां निर्मलां श्यामाभां कमलासनार्चितपदां नारायणस्यानुजां वीणा वेणुमृदङ्गवाद्यरसिकां नानाविधालम्बरां मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारां निधिम्। हृद्यवसतीं नानार्थसिद्धिप्रदां नानापुष्पविराजिताङ्घ्रियुगलां नारायणेनार्चितां नाद ब्रह्ममयीं परात् परतरां नानार्थतत्त्वात्मिकां मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारां निधिम्। मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारां निधिं मीनाक्षीं प्रणतोऽस्मि सन्ततमहं कारुण्यवारां निधिम्।